योगम्यं जन्मदात्रयः
असंशयं समग्रम् अव्यथाश्रासति तद्रुणु
ज्ञानं तेहं सविज्ञानं इदं वक्ष्याम्यशेषतः
यज्ञात्वामेह भूयो न्यतो ज्ञातव्यमवशिष्यते
मनुष्याणां सहस्रेषु कश्चित् यतति सिद्धये
यतरामपि सिद्धानां कश्चिन्मा वेति तत्त्वतः
भूमिरापो नो वायुः खं मनो बुद्धिरेव च
अहङ्कार इति यं मे भिन्ना प्रकृतिरक्षत
अपरेयमितस्तन्यं प्रकृतिं विद्धि मे परम्
जीवभूता महाबाहो एतं धायते जगत्
एतद्योनीनि
भूतानि सर्वाणि चुपधारय
अहं कृष्णस्य जगतः प्रभव प्रलयस्तः
मत्तः परतरम् किञ्चिदस्तु धनञ्जय
मयि सर्वमिदं प्रोतं सूत्रे मणिगणायिव
ममप्सुतं तेय प्रभास्तु सूत्रयोः
सर्ववेदेषु दग्धङ्गे पौरुषं ऋषु
पुण्यो गन्ध पृथिव्यं च तेजश्चास्ति विभासो
जीवनं सर्वभूतेषु तपश्चापि तपस्विषु
बीजं मां सर्वभूतानां विद्धि पार्थसनातनम्
बुद्धिमतामस्मि तेजस्तेजस्वि नामहम्
बलं बलवतन्याहं कामयाविवर्जितम्
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभा
देशेन सात्विका भावामासंशये
मन्द एवेति तान् विद्धि न कहन्ते श्रुते मयि
कृपे भावैरिदं जगतु
मोहितम्
एषा गुणमयी मम माया दुरक्षय
मामेव ये प्रपद्यन्ते मायामेतां सरन्ति ते
मम दुष्कृतिना मूढाः प्रपद्यन्ते नराधमाः
मायापहृतज्ञानाः आसुरं भावमाश्रिताः
चतुर्विधा भजन्ते मां जनाः सुकृतिमर्जुन
आचो जिज्ञासुरर्थाति ज्ञाने च फलकर्षभा
एषां जानी नित्ययुक्तः एकभक्तिर्विशिष्यते
प्रियहीनानि योच्यर्थम् अहं स च मम प्रियः
उदारः सर्व एवैते ज्ञानीनात्मैव मे मतम्
आश्रितः हि युक्तात्मा मामेवानुत्तमां गतिम्
बहूनां जन्मना मन्ते ज्ञानमानं प्रपद्यते
वासुदेवः सर्वमिति समः
कामैस्तैस्ते हृतज्ञानाः प्रपद्यन्ते देवताः
सन्तं नियममासाय प्रकृत्यानि यथा
स्वया
सन्तं भक्तः श्रद्धयाक्षितुमिच्छति
तस्य तस्याचरां श्रद्धां कामेव विदधाम्यहम्
सतया श्रद्धया युक्तः तस्याराधनमीहते
लभते च तथा कामान् मयैव विहितान्वितान्
अन्तवस्तुफलतेषां तद्भवत्यल्पमेधसा
देवानेव यजो यान्ति मद्भक्ता यान्ति मामपि
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम बुद्धयः
परं भावमजानन्तः ममाव्येनोत्तमम्
नाहं प्रकाश सर्वस्य योगमाय समानतः
मूढोऽयं नाभिजानाति लोको मामजमव्ययम्
वेदाहं समतीतानि वर्तमानानि च अर्जुन
भविष्याणि च भूतानि मां तु वेद न कश्चन
इच्छा द्वेष समुत्थेन द्वन्द्वमोहेन भारत
सर्वभूतानि सम्मोहं सर्गे यान्ति परं तप
येषां त्वं तदतं पापं जनानां पुण्यकर्मणां
ते त्वं त्वमोहनि मुक्ताः भजन्ते मां दृढव्रताः
जरा मरणमोक्षाय मामाश्रिचय कन्ति ये
कृष्णम् अध्यात्मं कर्म चापिदम्
सारि भूतादि दैवं मम सारि यज्ञं च ये विदुः
दयानकालेऽपि च मां ते विदुर्युक्तचेतसः
ॐ तत्सतु इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ధ్యా